अथाष्टादशोऽध्याय अर्जुनोवाच सन्यासस्य महाबाहो तत्त्वमेच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक् केशिनिसूदन श्रीभुवनुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहोस्त्यागं विचक्षणा त्याज्यं दोषवदित्येके कर्म प्राहोर्मनीषिणा यज्ञदानतपः कर्म न त्याज्यमिति चापरे निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागो हि पुरुषव्याघ्रो त्रिविध सम्प्रकीर्तित यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् यज्ञो दानं तपश्चैव पावनानि मनीषिणः एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमोत्तमम् नियतस्य तु संन्यास कर्मणो नोपपद्यते मोहात्तस्य परित्याग तामसः परिकीर्तित दुःखमेत्येव यत्कर्म कायक्लेशभरात्यजे सकृत्वा राजसं त्यागं नैव त्यागफलं लभे कार्यमेत्येव यत्कर्म नियतं क्रियते अर्जुना सङ्गं त्यक्त्वा फलं चैव सत्यागः सात्विको मतः न द्वेष्ट्यकुशलं कर्म कुशलेनानुसज्जते त्यागी सत्त्वसमावेष्टो मेधावीच्छिन्न संशय न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते अनेष्टमेष्टं मेष्टं च त्रिविधं कर्मणः फलं भवत्यत्यागिनां प्रीत्य न तु संन्यासिनां क्वचि पञ्चैतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् विविधास्त पृथक् चेष्टा दैवं चैवात्र पञ्चमाम् शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नर न्याय्यं वा विपरीतं वा पञ्चैते तस्य हि तव तत्रैवं सति कर्तारो आत्मानं केवलं तु य पश्यत्यकृतबुद्धे त्वां न स पश्यति पूर्वते यस्य नाहं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वा विषयवाल्लोकान् न हन्ति न निबध्यते ज्ञानं ज्ञेयं परिज्ञात त्रिविधा कर्मचूर्णा कर्णं कर्म कर्तेति त्रिविध कर्मसङ्ग्रह ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत प्रोच्यते गुणसङ्ख्याने यथावशृणुतान्यपि सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु ज्ञानं वेद्धि सात्विकम् पृथक्त्वेन तु यज्ञानं नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं वेद्धिराजसं यत्सुकृत्स्ववदेकस्मिन् कार्ये सक्रमहेतुवम् अथ त्वार्थवदल्पं च तत्तामसमुदाहृतम् नियतं सङ्गरहित न रागद्वेषतः कृतम् अफलप्येषु न कर्म यत्तत्सात्विकमुच्यते यत्तु कामेषु न कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासु तद्राजसमुदारितम् अनुबान्धं क्षयं हिंसा मनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत्तत्तामसमुच्यते मुक्तसङ्गो न वदे धृत्युत्साहसमन्वित सेध्यसेध्योर्निर्विकार कर्ता सात्विक उच्यते रागी कर्मफलप्रेषु लोभो हिंसात्मकोषते हर्षशोकान्वितः कर्ता राजसः परिकीर्तित अयुक्तः प्राकृतस्तब्ध शथोलैस्कृतिकोलस विषादे वीर्यसूती च कर्ता तामस उच्यते बुद्धिर्भेदं धृतेस्तैव गुणतस्विधं शृणु रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भजाभजे बन्धं मोक्षं च जावेत्ति बोधे सापार्थसात्विकी यया धर्ममधर्मं च कार्यं च कार्यमेव च अयथावत् प्रजानाति बुद्धे सपार्थराजसी अधर्मं धर्ममिति या मान्यते तमसावृता सर्वार्थान्यपरीतांश्च बुद्धे सपार्थतामसी धृत्यायाधारयते मनः प्राणेन्द्रियक्रिया योगेनाव्यभिचारेण्या धृतिः सपार्थसात्विकी यातु धर्मकामार्थान् धृत्याधारयते जुना प्रसङ्गेन फलाकाङ्क्षी धृतिः सपार्थराजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमोचति दुर्वेदा धृतिः सपार्थतामसि सुखं पिदानं त्रिविधं श्रुणे भरतर्षव अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमं तत्सुखं सात्विकं लोक आत्मबुद्धे प्रसादजं विषयेन्द्रियसंयोगा यत्तदग्रे मृतोपमं परिणामे विषमिव सुखं राजसंस्मृतं यदग्रे चानुबन्धे च सुखं नो हनुमात्मना निद्रालस्य प्रमादोत्थं तत्तामसमुदारितं न तदस्ति पृथिव्यां वा विविदेवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदि स्यात्त्रिभुर्गुणैः
ब्राह्मणक्षत्रियविषां शूद्रानां च परन्तप कर्माणि प्रविभक्तानि स्वभाव
समोदमस्तप शौचौ क्षान्तिराजवमेव च ज्ञानं विज्ञानमास्तेक्यौ ब्रह्मकर्मस्वभावजौ शौर्यं तेजोधृतेर्दाक्षौ योद्धे साप्यपलायनम् ज्ञानमीश्वर भावस्य क्षात्रं कर्म स्वभावजं कृषिगौरक्षवाणिज्यं वैश्यकर्म स्वभावजं परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजं कर्माण्यभिरत संसिद्धिं लभते नर स्वकर्मनिरतः सिद्धिं यथा विन्दति तत्सिनु यथा प्रवृत्तिर्भूतन येन सर्वमिदं ततम् स्वकर्मणाथमभ्यर्थ्य सिद्धिन्दति मानव स्वेयांस्वधर्मो विगुण स्वधर्मास्वनुष्ठिता स्व स्वभावनियतं कर्म पूर्वन्नाप्नोति कीर्दृशम् सहजं कर्म कौन्तेयो सदोषमपि न त्यजेत् सर्वारम्भवि दोषेण ृता असक्तबुद्धे सर्वत्र युगात्मा युगतस्तुल नैष्कर्म्यसिद्धं करुणां सन्न्यासेनाधिगच्छति सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोधने समासेनैव कौन्तेयो निष्ठज्ञानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियमत शब्दादीन् विषयांस्तत्वा रागद्वेषोऽभ्युदस्य च विविक्तसेवी लघ्वासी यत् वा कार्यमानस ज्ञानयोगपरो नित्यं वैराग्यं समुपाश्रित अहङ्कारं बलं वर्तं कामं क्रोधं परिग्रहम् विमोच्य निर्मम शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् भक्त्या मामभिजानाति यावान् यस्तास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरं सर्वकर्माण्यविशदा पूर्वाणो मद्यपाशय मत्प्रसादवाप्नोति शाश्वतं पदमव्ययम् चेतसा सर्वकर्माणि मयि सन्यस्य मात्पर बुद्धियोगमुपाश्रित्य मत्चित्तः सततं भव मच्चेत्तः सर्वदुर्गाणि मत्प्रसादात् करिष्यसि अथ चेत्त्वमहङ्कारान्न शोष्यसि विनंशसि यदहङ्कारमाश्रित्य न योष्य इति मन्यसे मेख्यैष व्यवसायस्ते प्रकृते स्वां नियोक्ष्यति स्वभावजेन कौन्तेय निबद्धस्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्य वशोऽपितः ईश्वरः सर्वभूतानां जिज्ञासे गुणतिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन भारत तत्र सादात् परां शान्ति स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया किमृष्यैकादशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमं भूय शृणु मे परमं वच इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् मान्मना भव मद्भक्तो मद्याजीमानमस्कुरु मामेवैष्यसि सत्यन्ते कति जाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकं शरणं गज अहं त्वा सर्वपापेभ्यो मोचयिष्यामि मा शुच इदं ते नाथपस्ताय मा भक्ताय कदाचन न सा शुश्रूषदेवाच्यं न च मां योग्यसूयति
यायिमं परमं भूयं माद्भक्तेष्वभिधास्यति भक्तिमयि परां कृत्वा मामेवैष्यच्य संशय न स तस्मान् मनुष्येषु अस्मिन् मे प्रियकृत्तमा भविता न स मे तस्मादन्यः प्रियतरो भुवि
अध्येष्यते जय इमं धर्मं संवादमावयो ज्ञानयज्ञेन तेन नेष्टस्यामि दिने मति श्रद्धावानन सूयस्व शृणुयादपि यो नर सो विमुक्तः शुभाल्लोका प्राप्नुयात् पुण्यकर्मणा काचिदेतत् श्रुतं पार्थ त्वयैकाग्रेण चेतसा काचिदज्ञानसम्मोह प्रणष्टस्ते धनञ्जय अर्जुनवाचे नष्टो मोहस्मृतिर्लब्धा यत्प्रसारान्मयाच्युत स्थितोऽस्मि गतसन्देह करिष्ये वचनं तव सन्देहवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मन संवादमिममाश्रंश महभूतं रो महर्षिणि व्यासप्रसादाच्छ्रुतवा एतद्गुह्यमहं परं योगं योगेश्वरात् कृष्णात् साक्षात् कथगतः स्वयं राजं संस्मृत्य संस्कृत्य संवादमिममद्भुतं केशवार्जुनयोः पुण्यं हृष्यामि च मुर्मुः तच्च संस्कृत्य संस्कृत्य रूपमत्यद्भुतं हरे विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धर तत्र श्रीर्विजयो भूषे सुवानेतेर्मतेर्वम यत्र योगेश्वर कृष्णो यत्र पाठो धनुर्धर तत्र श्रीविजयो भूते ध्रुवानेकैर्मतेर्वम ॐ तत्सदपि श्रीमद्भगवद्गीतासु कृष्णप्रियविद्यायां योगशास्त्रे श्रीकृष्णानुसन्धाने मोक्षसंन्यासयोगो नाम अष्टादशोऽध्याय वसुदेवसुतं देवं कंसजानुरमर्दनं देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं